క్రతుండ మహాకాజ సూర్యకోటి సమప్రభా నిర్విఘ్నం కురు మే దేవ సర్వకార్యేషు సర్వదా గణనాథ సరస్వతి రవి శుక్ర బృహస్పతి పంచీతాని స్మరేన్నిత్యం వేదవాణీ ప్రవర్తతే గురుర్బ్రహ్మా గురుర్విష్ణుర్గురుర్దేవో మహేశ్వరః గురుః సాక్షాత్ పరబ్రహ్మ తస్మై శ్రీగురవే నమః గురవే సర్వలోకానాం భిషజే భవరోహిణాం విధజే సర్వవిద్యానాం దక్షిణామూర్తయే నమః శ్రుతిస్మృతిరదీపూర్ణం శాస్త్రకల్లోలసంకులం విష్ణుభక్తిమహాఫేనం వందేహం శౌనకార్ణవం శర్ణో దేవీరభిష్టయాపో భవంతు పీతలే శయ్యోరభిస్రవంతు నః అథ ప్రథమం కాండం ఓం ప్తాపరియంతి విశ్వారూపాణి బిభ్రతః వాచస్పతిర్బలాదేషాహం తన్వో అద్యదధాతు మే పునరేహి వాచస్పతే దేవేన మనసా సహ వసోష్పతే నిరమయమయ్యేవాస్తు మయి శ్రుతం ఇహైవాభివిత నోభే ఆత్మీ భజ్జయా వాచస్పతిర్నిగచ్చతు మయ్యేవాస్తు మయి శ్రుతం ఉపాహూ వాచస్పతిరుపాస్మాం వాచస్పతిర్హయత స్వాం శ్రుతేన గమే మహిమా శ్రుతేన విదాధిషి విద్మా శరస్య పితరం పర్జన్యం భూరీధాయసం విద్మోష్వస్య మాతరం పృథివీం భూరీవర్పసం జ్యాకే పరీణో నమాశ్మానం తన్వం గ్రధి వేణుర్వరీయోరాతీరపద్వేషాం శాగ్రేధి వృక్షయ్యద్ధామః పరిషస్వజానాన స్ఫురం శరమర్జం త్రిభుం శరోమస్మద్యామయదిద్యుమింద్ర యథాద్యాం చ పృథివీం చాంతస్తిష్ఠతిరేజనం ఏవారోగ్రావంతస్తిష్టతో ముంచాజిత్ విద్మాశరస్య పితరం పర్జన్యం శరతవృష్ణ్యం తేనాతే తన్వే సంగ్రహం పృథివ్యాందే నిషేచనం బహిష్టే అస్తు బాలిది విద్మాశరస్య పితరం మిత్రం శరతవృష్ణ్యం తేనాతే తన్వే శంకరం పృథివ్యాంతే నిషేచరం బహిష్టే అస్తు బాలితి విద్మాశరస్య పితరం వరుణం శరతవృష్ణ్యం తేనాతే తన్వే శంకరం పృథివ్యాంతే నిషేచరం బహిష్టే అస్తు బాలితి విద్మాశరస్య పితరం చంద్రం శరతవృష్ణ్యం తేనాతే తన్వే శంకరం పృథివ్యాంతే నిషేచనం బహిష్టే అస్తు బాలితి విద్మాశరస్య పితరం సూర్యం శరతవృష్ణ్యం తేనాతే తన్వే శంకరం పృథివ్యాంతే నిషేచనం బహిష్టే అస్తు బాలితి యేషోగవీర్యోర్యద్వస్తావధీరం శ్రోతం ఏవాదేమోత్రం ముచ్యతాం బహిర్పాలితి సర్వగం ప్రతేభిరద్దీనహరం వర్త్రం వేషం చైవ ఏవాదేమోత్రం ముచ్యతాం బహిర్పాలితి సర్వగం విషీతం దేవస్తి విలంబ ముద్రస్యోదధేరివ ఏవాదేమోత్రం ముచ్యతాం బహిర్పాలితి సర్వగం యదేషుకాపరాపదవసృష్టాధిసంవానః ఏవాదేమోత్రం ముచ్యతాం బహిర్పాలితి సర్వగం అంబయోయంత్యద్భభిర్జామయో అధ్వరీయత రుంచతీర్మధూనాపయాః అమూర్యా ఉపయసూర్యేయాభిర్వాసూర్యస్సహ తానో హిన్వంతద్భరం అపో దేవీరుపర్వజేత్ర రామః పిబంతినః सिन्धुभ्यः कर्तुम् हविः अप्स्वान्तरमृतमप्सुभेषजम् अपामुतः प्रशस्तिभिरश्वाभवरथवाजिनो भावो भवथ वाजिनीः आपोहिष्ठामजोभुवस्तान ऊर्जेरधातन महेरणाहायक्षरते यो वः शिवत मोदसस्तस्य भाजयते हनाः उषतीरिव मातराः तस्मारङ्गमामपो यस्य क्षयः यजिन्वरथा आपो जनजथाजनः ईशानावाजयानाम् क्षयन्तेश्चर्षणीनाम् अपोयाः चामिभेषजम् शन्नो देवी अभिष्टयापो भवन्तु पीतरे शय्यो नभिस्रवन्तु नः अप्सु मे सोमो अब्रवीदन्तर्विश्वाभेषय अग्निम् च विश्वशम्भुवम् आपः प्रणीतभेषजम् वरुथन्तम् वे मम ज्योक्षसूर्यम् दृशे शन्नाबोधन्वन्याः शमो सन्तनोऽप्याः शन्नः कनित्रिमापश्रमुजाः कुम्भाभृता शिवानः सन्तु भारषीः स्तुवानमग्नावहयातु धानम् किमीदिनम् त्वम् हि देववन्दितो हन्तादस्योर्बभूवीथ आज्यस्य परमे क्षिञ्जातवेदस्तनोमसिन् अग्नेः तौलस्य प्राशाः न जातु धानाम् विलापया विलपन्तु जातु धानाः अर्त्रिणो ये किमीदिनाः अथेदमग्नेनो हविन्द्रश्च प्रतिहर्यथम् अग्निः पूर्वारभताम् प्रेन्द्रो रुदतु बाहुवान् ब्रवीतु सर्वो जातु मानयमस्मीत्येत्य पश्यामते वीर्यम् जातवेदः प्रणो ब्रूहि यातु धानाः चक्षः त्वया सर्वे परितप्ताः पुरस्तात्तायन्तु प्रब्रुवाणा उपेदम् आरभस्व जातवेदोऽस्माकार्थाः यजज्ञे भूतो नो अग्ने भूत्वा यातुधानाम् विलापया त्वमग्ने यातुधानानुपबद्धा इहावः अतैषामिन्द्रो वज्रेणापि शीर्षाणि वृष्टतो इदम् हविर्यातुधानान्नवीहेण विवावहत् य इदम् श्रीमानगरिहरस्तोवताम् जनाः अयम् स्तोवानागमधिमम् स्म प्रतिहर्यत बृहस्पतेवशेः लब्ध्वाग्निः सोमाविविध्यतम् यातु धानस्य सोमपदिः प्रजान्नयस्व च निस्तोवानस्य पातजपरमक्षुतावरम् यत्रैषामग्ने जनीमाधिवेद्धगुहाः सदामर्त्रिणाम् जातवेदः ताम् स्तम् ब्रह्मणा वा प्रधानो यज्ञेषाम् शतदर्हमग्ने अस्मिन् वसुपतरवोधारयन्दिन्दः पूषावरोणो मित्रो अग्निः इममादित्या उपविश्वे च देवा उत्तरस्मिन् ज्योतिषधारयन्तो अस्य देवा प्रदिशि ज्योतिरस्तु सूर्यो अग्निरुतबाहिरण्यम् सपद्माः अस्मदधारे भवन्तोत्तमन्नाकयमधिरोहजेमम् येनेन्द्राय समभरप्पयाम् सुत्तमेन ब्रह्मणा जातवेदः तेन त्वमग्नजिहवर्धजेमम् स जातानाम् श्रेष्ठ आहेह्येनम् ऐषाम् यज्ञमुतवर्चो देहम् राजस्पोषमुतचित्तान्यग्ने सपत्नाः अस्मदधरे भवन्तो तमन्नाकयमधिरोहयेमम् अयम् देवानामसो रोविराहाय दिवसाहि सत्यावरुणस्य राज्ञाः ततस्परि ब्रह्मणा शासदान उग्रस्य मन्योरुधिमन्नयामि नमस्ते राजन्वरुणास्तु मन्यवे विश्वम् शुग्रनिधिकेशी दृग्धम् सहस्रमन्याम् वसोवामि साकम् शतम् जीवादिशरदस्तवायम्
यदोवत्थामृतम् निर्भया वृजीनम् बहु राज्ञस्त्वा सत्यधर्मामुञ्चामि वरुणादहम् मुञ्चामि त्वा वैश्वानरादन्नहरान्माहरस्परि सजातानुग्रेहावदब्रह्मचापरिरीहिनः वषट्ते पूषन्नस्मिन् सुर्यमाहोता कृणोतु वेधाः शिश्रताम् नाकृतप्रजातापिपर्वाणि जिहताम् सोदवाहु चतस्रो दिवः प्रतिशश्चतस्रो भूम्या उत देवागर्भम् समीरयन्ताम् योर्नवन्तु सूतवे सूषाम् योर्नो दुविजोनिम् हापयामसि श्रया सूषणे त्वमहत्त्वम् निष्कले सृजा देव मांसेन पीवसीनेव मज्जस्वाहतम् अवैदुदृष्टिशेव लंशुनेः जरायवत्तमेव जरायोपद्यता मितेऽभिनद्धीमेहनम् वियो निम्बियनीते विमातरम् च पुत्रम् च विकुमारम् जरायुणाव जरायोपद्यता यथा वातो यथा मनो यथा पतन्ति पक्षिणाः एवा त्वम् दशमास्य साकम् जरायुणापताव जरायोपद्यता जरादिजः प्रथमपुस्तको वृषा पातभ्रजास्तनयन्नेति वृष्ट्या स नोः मृडाति तन्वरजुगोरुजन्यरेके मोजस्त्रेधावीतक्रमे अङ्गेः अङ्गे शोचिता शिक्षयानन्दमस्यन्तस्ता हविषा विधेम अङ्गान् समङ्गानि हविषा विधेमयो अग्रभेत् पर्वाः साग्रभीत पुञ्चदीर्षज्ञा उदयासयेनम् परुष्परुरा विवेशाजोऽस्य यो भ्रजावाः तजायश्च सुष्मो वनस्पतीन् सजताम् पर्वतांश्च शम् मे परस्मै गात्राय शमस्त्ववराय मे शम् मे चतुर्भ्यो अङ्गेभ्यः शमस्तु तन्वे नमस्तेऽस्तु विद्युते नमस्तेऽस्तन यत्नवे नमस्ते अस्मश्मने जेनाः गौडाशे अस्यसि नमस्ते प्रवतो न पाद्यतस्तपः समूहसि मृडयाः नस्तनोभ्यो मयस्तोकेभ्यस्कृति प्रवतो न पान्नम एवास्तु तुभ्यम् नमस्ते हेतजेतपूषे चर्णाः विद्मते धाम परमम् गुहायत्स मुद्रे अनन्तर्निहीरातिनाभिः याम् त्वा देवाश्रीजन्त विश्वयिषुम् कृण्वानासनाय धृष्णम् सामो मृडविदते कृणानातस्मी ते नमोऽस्तु देवी भगवस्यावर्च आदिष्यति वृक्षादिवस्त्रजम् महाबुद्धनिव पर्वतोद्योग्विदृष्टास्ता एषा ते राजन् कन्या मधूर्निधूर्यताम्यम सा मातुर्बध्यताम् गृहेतो भ्रातुरो पितुः एषा ते कुलपाराजन्तामूते परिदध्मसि योग्विदृष्टा सा ता आजेष्णः समोऽप्यात् असीतस्य ते ब्रह्मणा कश्यपस्य जयस्य च अन्तःकोशमेव जामयोऽपि नह्यामि ते भगम् सं स्रवन्तो निन्धवः संवाताः सम्पदत्रिणाः इमै यज्ञम् प्रतिवो मे जुषन्ताम् सं स्राम्येण विषाजुभोमि इहैव हवमायातमैहलम् श्रावणाहुतेमम् वर्धयता गिरः इहैव सर्वोजः पशुरस्मिन् तिष्ठतु जारैः ये नदीनाम् संस्रवन्दुन्दासभक्षीणाः तेभ्यम् मे सर्वैः संस्रावैर्धनम् संस्रावयामसि ये सर्विषः संस्रवन्ति क्षीरस्य चोदयकस्य च तेभिर्मे सर्वैः संस्रावैर्धनम् संस्रावयामसि ये मावास्याम् रात्रिमुदस्तर्वाजभत्रिणाः
अग्निस्तुयो यातुहासो अस्मभ्यमधिप्रवद श्रीसायाध्याग्निरुपावति श्रीशम् महेन्द्र प्रायच्छत्तसङ्गया दुशातनम् इदम् निष्कन्धम् सहत इदम् बाधते अत्रिणाः अनेन विश्वाससहेजा जातानि विशाच्याः यदि नोगाम् यद्यश्वम् यदि पूरुषम् तम् त्वाशीलेन विद्यामो यथा नोऽसो अवीरः अमोर्यायन्ति योषितो हिरालोहितवाससः अभ्रातरैव रामयस्तिष्ठन्तु हतवर्जसः तिष्ठामये तिष्ठपर उतत्तम् तिष्ठमध्यमे कनिष्ठिका च तिष्ठायद्धमनिर्महि शतस्य धमनीनाम् सहस्रस्य हिराणाम् अस्थुरिन्मध्यमा इमा स्वागमन्दाः अरंसत परेवस्विक तावदीशनोर्बृहत्यक्रमेत् तिष्ठते रजतासुकम् निर्लक्ष्यम् राम्यान्निरलातिम् सुवामसि अथ या भद्रातानि न प्रजयारातिम् न जामसि निरलाणिम् सविता सा विषक्पदोर्निरहस्तयोर्वरुणो मित्रो निरस्मभ्यमनोमतीरराणा प्रेमाम् देवा सा विषस्तौभगाय यत्त आत्मनि तन्वाम् घोरमस्ति यद्वाकेशेषु प्रतीतक्षणेव सर्वम् तद्वाचापहन्मो वयम् देवस्त्वा सवितासूदयतु ऋष्यपतीम् वृषदतीम् घोषेधाम् विधमापुता विलीढ्यम् लाम्या आन्तास्मन्नाशयामसि मानो विदन्विम् व्याधिनो माभिव्याधिनो विदन् आराच्छरम् व्यास्मद्विषोदीरिन्द्रपातय विश्वम् च अस्मच्छरपदन्तु जे हस्ताय चास्याः दैवीर्मनुष्येष भो ममामित्रान् विविध्यत यो नस्को यो अरणस्त जात उतनिष्ठो यो अस्माभिदासति रुद्रश्च रम्यरीतान् ममामित्रान् निविध्यतो यः सपत्नो यो सपत्नो यश्च द्विषन्नपादिनः देवास्तम् सर्वे धूर्वन्त ब्रह्मवर्म ममान्तरम् अदाभवतु देवसो मास्मिन् यज्ञे मारुतो मृडतानः मानो विदभिभामो अशस्त्यर्मानो विदद्रिजिनाद्वेष्याय यो अद्यतेऽन्यो वधो हरूणामुदीरते युवन्तम् मित्रावरुणामस्मद्याः वयतम् परि इतश्च यमुतश्च यद्वधम् वरुणयावय यावयावधम् शापयुक्ता महाङ्गस्य मित्रसाहोऽस्त्रितः न यस्य हन्यते सखा न जीयते कदाचन स्वस्तिता विशाम् वतिर्वृत्रहारिवृधो वशी वृषेन्द्रः पुरयेतुनः सोमपाभयङ्करः विनयन्द्रमृधो जहिनी चारक्षपृतन्यतः अधमङ्गमजातमोजो अस्माभिदासति विरक्षो विमृधो दहि वृत्रस्य हनोरुज विमन्युमिन्द्रवृत्रहन्नमित्रस्याभिदासतः अपेन्द्रद्विषतो मनो प्रजिद्याः रतोऽयम् विमहच्छवरी यो यावयावधम् अनुसोर्जयमुदयताम् हृद्योतो हरिमाचरते गोरोहीतस्य वर्णेन तेन त्वापरीदध्वसि परिद्वारोहीतैर्वर्णैर्दीर्घायुत्वायध्वसि यथायमरमाशयतो अहरितो भुवत् यारोहिणीर्देवत्याभो या उतरोहिणीः रूपम् रूपम् वयो वयस्ताभिष्टापरीदध्वसि सुकेषु ते हरिमाणम् रोपणाकासु दध्वति अथो हारिद्रवेषु ते हरिमाणम् निदध्वति
नक्तम् जातास्योषधे रामे कृष्णे अशिक्मि च इदम् राजनिरजयकिलासम् फलितम् च यत् किलासम् च फलितम् च निरितो नारजापृषत् आत्वा स्वीषताम् वह्नपराः शुक्रानीपातय असीतन्ते प्रलयनमास्थानमसीतन्तव असिग्निजस्योषधे निरितो नारजापृषत् अस्थिजश्च किलासश्च तनूजश्च जयत्वमि दूष्यागतश्च ब्रह्मणा लक्ष्मश्वेतमालीनसम् सुपर्णो जातः प्रथमस्तस्य त्वम् वित्तमासिथ तदासुरीयुगालिता रूपम् चक्रे वनस्पतीन् आसुरीचक्रे प्रथमेदम् किलासेदमिदम् किलासनाशनम् अनेन किलासम् सरोपाकरत्वजम् सरोपा नाम ते माता सरोपो नाम ते पिता सरोपकृत्तमोषधे सा सरोपमिदम् क्रेधि श्यामा सरूपम् करणे पृथिव्याध्युद्भृता इदमोषप्रसाधयगुणाः रूपाणि कल्पया यदग्निरापो अदहद्रविश्चयत्राकण्वन् धर्म कृतो नमांसि तत्र दाहुः परमम् जयित्रम् सनसम् विद्वान् परिरङ्घिरक्मन् यद्यर्चिरयदिवाशिष्टकल्येषीवाते जनित्रम् नामाहादिहयतस्य देवसरस्तम् विद्वान् परिवृङ्घिरक्मन् यदि शोको यदीवाभिशोको यदीवाराज्ञो वरुणस्यासि पुत्रः रोडुर्नामाहादिहयतस्य देवसरस्तम् विद्वान् परिवृङ्घिरक्मन् नमः सीताय तग्मने नमो रूराय शोचिषे कृणोमि योऽन्येद्योभयद्युरभ्येति तृतीयकाय नमो अस्तु तक्मने आये एषामस्मदस्तु हेतिर्देवासो असत् आये अस्मायमस्त्यथा सकासामस्मभ्यमस्तु राजस्तखेन्द्रो भगस्त विता चित्रराधाः यूयन्नः प्रवतो न पान्मरोतः सौर्यत्वजसः शर्म यच्छात सप्रथाः सुषोदत मृडत मृडयास्तनो व्योमयस्तोकेभ्यस्कृति अमोः पारे पृथाक्मस्त्रिशब्दानिद्यराजवः तासाञ्जराजोभिर्वजमक्ष्यामस्य धारः परिपन्थिनाः विषोच्चेतदन्तरीविनागमिभ्रति विश्वः पुनर्भुवा मनोस वृद्धाघायवाः नवः समाशयन्नार्भकाभिधाः वेणोरद्गायाभिदोस वृद्धाघायवाः प्रेतम् पादौ प्रस्फोरतम् वहरतम् प्रणतो गृहान् इन्द्राण्येतु प्रथमाजिता पुनः उपप्रागात् देवो अग्नेरक्षोहामी हजातनः दहन्नपद्वयादिनोः जातुधानाम् किमेदिनाः प्रतीदह जातुधानान् प्रतीदेव किमेदिनाः प्रतीते कृष्णवर्तने सन्दह जातुधान्याः याशापशमानेन जाधम् मूलमादधे जानदस्य हरणाय जातमाहारेभे लोकमत्तु सा पुत्रमत्तु जातुधाने स्वसाहारमुत नत्यम् अधामितो विकेश्यो विघ्नताम् यातु धान्यो विदृतम् यन्तामराय्याः अभीवर्तेन मणिनादेनेन्द्रो अभिवावृधे तेनास्मान् ब्रह्मणस्पतेभिराष्ट्राय वर्धय अभिवृत्य सपत्नाहानभिजानो अराहादयः अभिप्रेतन्यन्तम् निष्ठाभियो नो दुरस्यति अभित्वा देवस्तविताभिसोमो अवीवृधत् अभित्वा विश्वाः भूतान्यभिवर्तो यथा सति अभिमन्तोऽभिमवस्तपत्नक्षयणो मणिः राष्ट्राय मह्यम् बध्यताम् सपत्नेभ्यः पराभुवे उदयसौ सौर्यो अगादुरिदम् महामकम् वचाः यथाहम् शत्रोदाहन्यपत्नस्त पत्नः स्वपत्नक्षय नो वृषाभिराष्टो वृषासहि यथाहमेषाम् विदस्य च विश्वे देवावस वो रक्ष देममुतादित्याजाकृतयोजमस्मिन् मेमम् सनाभिरुतवान्यनाभिर्मेमम् प्रापः पौरुषे यो वधोरः एवो देवाः पितरो ये च पुत्रास्तजेदसो मे शृणुतेदमुक्तम् सर्वेभ्यो भक्परिदाम् एतम् स्वलकेनम् जगदेवः ये देवादिविष्ठये पृथिव्याम् ये अन्तरिक्षवोषधीषु पशुष्वप्स्वा आन्तः ते क्रीणुत जलसमायोरस्मे शतमन्यान् परिवृणक्तु मृत्योर् येषाम् प्रयाजा हुतवानुयाजा हुतभागाहुतादश्च देवाः येषाम् भक्पञ्च प्रतिशो भक्तास्तान्वो अस्मे सत्र शतकृणोमि आशानामाशापालेभ्यश्चतुर्भ्यो अमृतेभ्यः इदम् भूतस्याध्यक्षेभ्यो विधेमः वयम् यादानामाशापालाश्चत्वारस्तनदेवाः तेनो निर्णत्याः पाशेभ्यो मुञ्चलाम् हरतो अम्भतः अश्रामस्ता हविषाय जाम्यश्लोणस्ता हृतेन जुहोमि यशानामाशापालस्तुरीयो देवस्तनश्रुभूतमेह रक्षते स्वस्तिमात्रभुतमित्रेणो अस्तु स्वस्तिकाभ्यो जगते पुरुषेभ्यः विश्वम् सुभूतम् सुविदत्रन्नोऽस्तुर्जोगेवदेशेव सूर्यम् इदम् जनासो विदध महद्ब्रह्म वदिष्यति कदत्पृथिव्याम् नो दिविजेन प्राणन्ति वीरुधाः अन्तरिक्षासाम् स्थामश्रान्तसदाय आस्थानमस्य भूतस्य विदुष्टद्वेधसो न वा यद्रोदशीरजमाने भूमिश्च निरतक्षणाम् आर्द्रम् ददद्य सर्वमुद्रस्येव श्रोत्याः विश्वमन्यामभिमारदन्यस्यामधिश्रितम् दिवे च विश्ववेदसे पृथिव्यै चाकरन्नमाः हिरण्यवर्णाश्च यः पावकायासु जातस्य पितायाश्वग्निः या अग्निम् गर्भम् नधिरे सुवर्णास्तानापश्यम् श्यो न भवन्तो यासाम् राजा वरुणो याति मध्ये सत्यानृते अवपश्यम् जनानाम् या अग्निम् गर्भम् नधिरे सुवर्णास्तानापश्यम् श्यो न भवन्तो यासाम् देवादिकृण्वन्ति भक्षय्या अन्तरिक्षे बहुधा भवन्ति या अग्निम् गर्भम् दधिरे सुवर्णास्तानापश्यम् सो न भवन्तो शिवेन माचक्षुषा पश्यतापशिवया तन्वोपस्पृशतत्वचम् मे घृतश्रुतश्रुतयोगास्तानापश्यम् सो न भवन्तो इयम् मेरुन्मधो जाता मधूना त्वाखनामसि मधोरधि प्रजादासिधानो मधुमतस्कृति जिह्वायाग्रे मधु मे जिह्वा मूले मधुलकम् ममेदहक्रतावतो मम चित्तमुपायति मधुमन्मे निक्रमणम् मधुमन्मे परायणम् वाचा वदामि मधुमद्भूजातम् मधुसन्दृशः मधोरस्मि मधुतरो मधुभान् मधुमत्तरः मामित्यम् वनाश्चाखाम् मधुमतीन परित्वारि तत्नुने क्षुणाः कामविद्विषे यथा माम् कामिन्यसो यथा मन्नापगासाः यदा बद्धन्दाक्षायणा हिरण्यम् शतानीकाय सुमनस्यमानाः तत्ते बद्धाम्यायुषे वच्च सेवलाय दीर्घायुत्वाय शारदाय नैनम् वृक्षांसि न पेशा च सहन्ते देवानामोजः प्रथमजम् ह्ये एतत्
यो विभर्तिराक्षायणम् हिरण्यम् स जीवेषु कृणुते दीर्घमायोः अपान्ते ज्योतिरोजो बलम् च वनस्पतीनामुत वीर्याणि इन्द्रिवेन्द्रियाण्यधिधारयामो अस्मिन् तद्रक्षमाणो हिरण्यम् समानाम् मासा मृतभिष्ट्वा वयम् संवत्सरस्य वयसापि पर्मि इन्द्राग्नीष्वे देवास्ते नो मन्यन्तामरणीयमानाः
इति प्रथमकाण्डम् समाप्तम्। अथ द्वितीयकाण्डम्।
ॐ वेनस्तत्पश्चत्परमङ्गुहायद्यत्र विश्वम् भवत्येरूपम् इदम् वृष्णीरभ्यालयमानाः सर्वितो अभ्यनूषदौराः प्रतद्वोचेदमृतस्य विद्वान् गन्धर्वोधाम परमङ्गुहाय त्रीणि पदानि नागुहास्तेजस्तादेव धनपितरुष्पिलासत् स नः पिता जनितास उदबन्धुर्धामानि वेदभवनानि विश्वाः यो देवानाम् नाम एक एव तम् सम्प्रश्नम् भवनायन्ति सर्वाः परिद्यावाः पृथिवी सद्याः तिष्ठे प्रथमजानतस्य वाच विभक्तरि भुवनेष्टा धास्य देशनम् एषो अग्निः परिविश्वभुवनान्यायमृतस्य तन्तम् वितरम् दृशेकम् यत्र देवा अमृतमानशालास्वमानेयो नावध्यैरयन्त दिव्योगम् धर्मो भुवनस्य यस्पतिरेक एव वस्योः वीर्याः तन्तायौ मे ब्रह्मणादिव्यदेव नमस्ते अस्तु जीवितेः सहस्थम् दिनिःस्पृष्टोय जलसौर्यत्वगमजाता हर सोदैव्यस्य वृणाद्यम् धर्मो भुवनस्य अरस्पतिरेक एव नमस्य सुषेवाः अनवद्याभिस्तमो यज्ञाभिरप्सरा स्वपि गन्धर्वासीत् समुद्राः सांसदनम् आहुर्यतस्तद्याः चरणाः चरयन्ति अभ्रीयज्ञम् नक्षत्रियेया विश्वावसम् गन्धर्वम् सदद्भे ताभ्यो वो देवीर्नमयित्रेणोमि याः कन्दास्तमीशीतयोक्षताः मा मनोमुहाः ताभ्यो गन्धर्वपत्नीभ्योऽप्सराभ्यो करन्नवाः अलो यदपथावर्त्यभक्तमधिपर्वतात् तत्ते कृणोमि भेषजम् सुभेषजम् यथासि आदङ्गा कुविदङ्गा शतय्या भेषजालीने तेषामसि त्वमुत्तममानास्तावमरोगणम् नीतेः कनन्त्यसूरारुस्राणमिदम् महद तदा स्रावस्य भेषजम् तदुलोकमनीषद उपजीका उद्भरन्ति समुद्रादधिभेषजम् तदा स्रावस्य भेषजम् तदुलोकमनीषमत् अनुष्ठानमिदम् महत्प्रथिव्याध्यभ्रतम् तदा श्रावस्य भेषजम् तदुलोकमनीनशत् षण्मा भवन्तमोषधय शिवाः इन्द्रस्य वज्रो अपहन्तु रक्षस आराद्विषट्टा इषवः पतन्तु रक्षसाः दीर्घायुत्वाय बृहतेरणायारिष्यन्तो रक्षमाणास्तदैव मयम् विष्कन्धदोषणम् जङ्गिणम् विभ्रमो मयम् जङ्गिणो जम्भाद्विषादिष्कन्धादभिशोचनात् मणिसहस्रवीर्यः परिणः पातु विश्वतः अयम् विष्कन्धम् सह तेजम् बाहृदे अत्रिणाः अयम् नो विश्वभेषजो जङ्गिणः पात्तम् हरतः देवैर्दत्तेन मणिना जङ्गिणेन मनोभुवाः विष्कन्धम् सर्वारक्षाम् शिव्यायामे सहामहे क्षणश्च मा जङ्गिणश्च विष्कन्धादभिरक्षताम् अरण्यादन्याभृतः कृष्या अन्योरसेभ्यः कृत्यादोषीरयम् मणिरथोषीः अथो सहस्राञ्जङ्गिरः प्रणायोंषिदारिषद इन्द्रजुषस्व प्रवहायायोरहरिभ्याम् विवाह सुतस्य मते दिहमधोश्चकारश्चारुर्मदाय इन्द्रजठम् नव्यो न प्रणस्तमधो अस्य सुतस्य स्वा आर्णोपत्वापदाः सुवाचो अगुः इन्द्रस्तु आशान् मित्रो वृत्रयो जघारयतीर्न बिभेद बलम् भृगुर्नस सहे शत्रोन्मदे सोमस्य आत्वा विशन्तु सुतासरिन्द्रकृणस्व कुक्षीभिड्ढीचक्रधिरेह्यानाः सुधीरहमङ्गिरो मेजुधस्वेन्द्रस्वजद्भिर्मत्स्नेहमहेरणाय इन्द्रस्य नु प्रावोचम् वीर्याणि चकारप्रथमानि वज्री अहम् न हिमन्वरपस्तदग्नप्रभक्षणा अभिनत्पर्वतानाम् अहम् न हिम् पर्वते शिशिरानम् दत्तास्मै वज्रम् सर्गम् तदक्ष वाश्रायैव धेनवस्कन्दमाना अञ्जः समुद्रमवजग्वरावाः वृषायमानो वृणीततो मन्त्रिगद्युगे सदस्य आशायकम् मघवाः दत्तः वज्रमहन्नेनम् प्रथमजलमहीनाम् समास्त्वाग्रतवो वर्धयन्तु संवत्सराणि सत्या सन्निव्येन दीनिः रोदनेन विश्वाभाहि प्रतिषष्टदस्रः सञ्चेद्यस्वाग्ने प्रचवर्धदेवमुच्चतिष्ठमहते सौभगाय मादेषन्नुपसत्तारो अग्ने ब्रह्माणस्ते जयदस्रन्धुमान्ये त्वामग्ने वृणते ब्राह्मणा इमे शिवोऽग्ने संवरणे भवानः समत्नाग्नेः अभिमातिचिदभवस्वेगयेः जागृत्य प्रायुच्छन् क्षत्रेणाग्ने स्वेन संरभस्वमित्रेणाग्ने मित्रधायतस्व सजातानाम् मध्यमे क्षाराज्ञामग्ने विगम्यो दीरिः अदिनिहो अतिसृधो त्यचित्तीरतिर्निषाः विश्वायज्ञे दुरितास्मभ्यम् सहवीरम् दरिन्दाः अभद्विष्टा देवजाताधिरक्षपथयोपानी आपोमलविमप्राणे क्षेत् सर्वान्मच्छपथाम् अधि यश्च सा पत्नश्चपथो जान्याश्चपतश्च ब्रह्मायन्मन्युदश्रपात् सर्वम् तन्मो अधस्पदम् दिवो मूलमवदतम् पृथिव्याद्युत्तरतम् तेन सहस्रकाण्डेन हरेण पाहि विश्वताः परिमलाम् परिमे प्रजाम् परेण पाहि यद्धनम् अराहारिर्नो माताहारेन्मानस्तानिषु अभिमादरः सप्तारमेतु शपथो यः सुहार्तेन न सः चक्षुर्मन्त्रस्य दुर्हार्दः वृष्णीरपि शृणीमति उदगाताम् भगवती विदृतौ नाम तारके वृक्षे त्रियस्ते मुञ्चतामधनम् पाशमुत्तमम् अपेयम् रात्र्युच्छत्वपोः चरन्नभिकृत्वारीः वीरुक्षे त्रिजनाशन्नपक्षे त्रियमुच्छतो बभ्रोरर्जुनकाण्डस्य यवस्य देवहाल्यादिरस्य जलभिङ्ग्या वीरक्षेत्रिजनाशन्नपक्षे त्रियमुच्छतो नमस्ते लाङ्गलेभ्यो नम ईशायुगेभ्यः वीरक्षेत्रिजनाशन्नपक्षे त्रियमुच्छतो नमस्तसाक्षेभ्यो नमस्तम् देश्येभ्यः नम क्षेत्रस्य पदने वीरुक्षेत्रिजनाशन्नपक्षेत्रियमुच्छतो दश वृक्षमुञ्चेमम् वृक्षसोऽग्राज्याधिनम् अथो येनम् वनस्पते जीवानाम् लोकमुन्नय आगादुदगादयम् जीवानाम् व्रातमप्यगात् अभूदुपुत्राणाम् पितारणाम् च भगवत्तमः अधीति अध्यगादयमधीरेव पुरा अगन् शतम् शस्य भेषजः सहस्रपुरविरुधाः देवास्ते चीतिमाविदं ब्रह्माण उतवीरुधाः चीतिन्ते विश्वे देवानिदं भूम्यामधि यश्चकारसंस्कारत्स एव सुभिरक्तमः तदेव तुभ्यं भेदजानि कृणवद्भेदजाभिः।